ॐ वक्रतुण्डामः काया सूर्यकोटिसमप्रभः निवेघ्नं कुरु मे देव सर्वकार्यैश्वर्वदा सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देव महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः नमः सर्वेभ्यः स्वागतम् अस्माकं गीतासोपानवर्गे द्वितीयभागः तत्र अस्माकं विषयः अस्ति पूर्णप्रत्ययान्ताः पूर्णप्रत्ययाः इति तत्र पूर्णप्रत्ययः इत्युक्ते तत्र विशिष्टप्रत्ययः अस्ति पूर्णप्रत्ययः इति तद्धिते प्रत्ययेषु अन्यतमः अस्ति तत्र पश्यतु प्रत्ययः तत्र किमस्ति एकमस्ति तिङ् प्रत्ययः इत्युक्ते क्रियापदं यथा धातुतः क्रियापदं निर्मीयते तेषां नाम अस्ति तिङ् प्रत्ययः इति अनन्तरं किमस्ति कृत् प्रत्ययः तदपि धातुतः एव विधीयन्ते धातु क्रियां सूचयति अथवा भावं सूचयति तत्र कृदन्तप्रत्ययः कृत् प्रत्ययः इति वदामः तत्र धातुतः एव एतद् अन्यदस्ति सुप्रत्ययः सुप्रत्ययः इत्युक्ते तत्र प्रातिपदिकात् विधीयन्ते प्रातिपदिकात् तदितप्रत्ययः अपि तथैव सन्ति तदितप्रत्ययः प्रातिपदिकात् विधीयन्ते प्रातिपदिक इत्युक्ते यत् नामपदस्य मूलमस्ति तत्र अत्र तेषु तत्र त्रिंशत् अत्र पञ्चाशीतिः अधिकद्विशतं तत्र सद्यप्रत्ययाः सन्ति तेषु अन्यतमासीत् पूर्णप्रत्ययः तस्य नाम किमर्थं पूर्णप्रत्ययः इत्युक्ते अनेन पूर्यते अनेन अस्मिन्नर्थे तत्र धातोः प्रूधातोः लुट् प्रत्ययगतः पूर्ण इति शब्दः इति किमर्थं तत्र पूर्ण इत्युक्ते गणनायाः पूर्णता भवति इति तत्र अत्र एषः अस्ति तत्र कथमः कथितः इत्युक्ते फस्ट् सेकेण्ड् इति तादृश अर्थे भवति तत्र प्रथमः द्वितीयः तृतीयः इति तत्र आर्डिनल् नम्बर्स् इति वदामः तत्र कथितः इति अस्य प्रश्नस्य उत्तरार्थं तत्र अस्य पूर्णप्रत्ययान्तशब्दानां प्रयोगः भवति वयं जानीमः तत्र प्रथमः इति अस्ति तत्र प्रथमः इति अस्ति द्वितीयः तृतीयः इति तत्र तीय इति प्रत्ययः भवति प्रथमः इत्युक्ते कश्चन उणादिप्रत्ययः
श्रूयते महोदय
भग्नजाता महोदय न श्रूयते
न श्रूयते What happened?
एकवचने भवति बहुवचने भवति भवितुमर्हति तत्र भिन्नभिन्न गणेषु बहवः गणाः सन्ति इदानीं तेषु प्रथम ये प्रथमाः सन्ति खलु तेषां गणः भवति यत् प्रथमाः इति भवितुमर्हति प्रथमाः ये भिन्नभिन्नगणेषु ये प्रथमः ए बि सि डि इति चिन्तयन्तु तत्र गणः चत्वारः गणाः सन्ति तेषु प्रथमः यत् एक प्रत्येकस्य गणात् प्रत्येकात् गणात् ये प्रथमः व्यक्तिः भवति यत् प्रथमः ये गणस्य प्रथमः तत्र आगणस्य प्रथमः ई गणस्य प्रथमः इति तत्र तादृश भवितुमर्हति बहुवचने परन्तु सामान्यतः एकवचने एव प्रथमः पुरुषः द्वितीयः पुरुषः तृतीया महिला इति त्रिषु लिङ्गेषु भवति तत्र विशेषणं भवति वयं जानीमः तत्र प्रथमः द्वितीयः तृतीयः इति अकारान्तः अस्ति त्रिलिङ्गे किं भवति तत्र तृतीया पर्यन्तम् आकारान्तः भवति प्रथमा द्वितीया तृतीया इति त्रिलिङ्गे अनन्तरं तत्र नी प्रत्ययः भवति प्रथमम् तत्र आ इति प्रत्ययः भवति अनन्तरम् इ इति प्रत्ययः भवति चतुर्थी सप्तमी षष्ठी इति तत्र वयं जानीमः तत्र त्रिषु लिङ्गेषु भवन्ति अकारान्तवत् पुल्लिङ्गे नपुस्तकलिङ्गे अकारान्तवत् भवति इति तत्र तेषां सप्तसु विभक्तिषु तत्र तेषां रूपाणि भवन्ति इति वयं दृष्टवन्तः गतकक्षायां इदानीं पुनः गच्छामः तत्र पूर्वं किं कुर्मः, वयं किञ्चित् अधीतवन्तः खलु, अतः तत्र यत् यद् आदिमः अस्ति खलु तत्र एकादशपाठः अस्ति खलु तत्र अस्माकं तु विशिष्टाय इति पाठं पठामः. अस्तु तत्र कः आरम्भं करोति? यशोदा भगिनी सुधा इति भवतु, यशोदायाः सुधा नाम, अपि च राधिका वसुधा. अस्तु आरम्भं कुर्वन्तु. यशोदा भगिनी आरम्भ. सुधा
सुधा एतत् सम्भाषणम् उच्चैः पठत भगिनी किं कुर्वति अस्ति भगिनि?
अहम् एकां दिनदर्शिकां रचयन्ती अस्मि.
भो साधुना विषयं विविध दिनदर्शिका.
पुनः पठतु भगिनि. भोः अधुना
विपण्यां दिनदर्शिका लभन्ते खलु, पुनः लभ्यन्ते खलु, पुनः निर्माणं किमर्थम्?
एषा किञ्चित् भिन्ना अस्ति. अस्यां सर्वे भारतीयाः उत्सवाः, महापुरुषाणां जन्मतिथयः ऐतिहासिकमुहूर्तश्च उल्लिखिताः सन्ति. तेन राष्ट्रस्य विषये ज्ञानं सुकरं भवेत्.
अतीव शोभनं भवति. तत् दर्शयतु तावत्.
ततः पूर्वं भवत्याः परीक्षां करोमि. भवती मम प्रश्नानाम् उत्तरं वदेत्.
अस्तु.
स्वातन्त्र्यदिनोत्सवः कदा भवति?
कः न जानामि भो. आगस्ट् मासस्य पञ्चदशो दिनाङ्के.
सुधे तर्हि गणेशोत्सवः कदा?
चतुर्थी तिथौ इति जानामि, किन्तु मासं न तु स्मरामि.
अहमेव वदामि. भाद्रपदमासस्य शुक्लपक्षे चतुर्थ्यां तिथौ गणेशोत्सवः.
अस्तु, कः तृतीय प्रश्न?
तृतीयः प्रश्नः, छत्रपतेः शिवाजीराजस्य जन्म फाल्गुणमासस्य द्वितीयायां तिथौ उत तृतीयायां तिथौ?
तृतीयायां स्थितौ एव, न तु द्वितीयां स्थितौ.
द्वितीयायां
तिथौ.
समीचीनम् उत्तरम् उक्तवती भवती. तर्हि एतद् वदतु, वयं नवरात्रोत्सवं कदा आचरामः?
धन्यवादः भगिनि. इदानीं तत्र निरञ्जना भगिनी, द्वारकनाथ महोदय भवती, भवान् पठितुमिच्छति वा?
पठामि महोदय. पुस्तकं गीतासोपानं द्वितीयभागः, पुटसङ्ख्या
अस्ति ऊनसप्ततिः 69 अथवा तत्र सप्तसप्ततिः इति PDF मध्ये सप्तसप्ततिः.
PDF कुत्र अस्ति महोदय?
भवतः पार्श्वे अस्ति वा बुक्, पुस्तकमस्ति वा?
आं, बुक् शेल्फ् मध्ये अस्ति, पञ्चनिमिषानि अनन्तरं.
अस्तु 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 भवान् अस्तु इदानीम् आनयतु, तावत्पर्यन्तं वयं अग्रे गच्छामः. अस्तु निरञ्जन
भगिनी, श्रूयते श्रूयते वा महोदय?
इदानीं भवती सुधा भवतु, अपि राधिका भगिनी, राधिका वसुधा.
ओके. आश्विन मासस्य शुक्लपक्षे प्रथमायाः तिथेः आरभ्य नवमीं तिथिं यावत् नवरात्रम् आचरामः। तत्र अष्टमी तिथिः दुर्गाष्टमी इति, नवमी तिथिः महानवमी इति, दशमी तिथिः विजयदशमी इति च विख्याताः।
किमर्थं दशमीं तिथिं विजयदशमीं वदन्ति?
दशम्यां तिथौ एव दुर्गादेवी महिषासुरं हतवती, अतः देव्याः विजयकारणात् दशमीं तिथिं तथा वदामः। एतावता भवती मां प्रश्नैः पीडितवती, इदानीम् अहमपि किञ्चित् पृच्छामि।
पृच्छतु तावत्।
चैत्रमासस्य प्रथमायाः तिथेः वैशिष्ट्यं किम्?
चैत्रमासस्य प्रथमायां तिथौ एव युगादिपर्व भवन्ति।
सखी आषाढ सखी आषाढमासस्य चतुर्दश्यां तिथौ कोऽपि विशेषः अस्ति किम्?
चतुर्दश्याः तिथेः विषये मम ज्ञानं नास्ति, परन्तु आषाढमासस्य पूर्णमासाम् एव व्यासजयन्ती इति जानामि। पूर्णिमायाम् एव व्यासजयन्ती इति जानामि। पूर्णिमा इत्येव तस्याः प्रसिद्धिः। अस्तु अस्तु भगिनि, गुरुपूर्णिमा उन्ने गुरुपूर्णिमा इत्येव तस्याः प्रसिद्धिः। अस्तु भगिनि, भवती अपि दिनदर्शिकायाः निर्माणे साहाय्यं करोति किम्?
निश्चयेन करोमि, वदतु मम किं करणीयं, मया किं करणीयम्?
भवती
कृत्यानां कर्तरि वा इति सूत्रेण मम किं करणीयम् अथवा मया किं करणीयम् इति द्वयमपि साधनम् अस्तु।
भवती एतानि पत्राणि गृह्णातु। प्रथमे पत्रे उत्सवानाम् आवलिः अस्ति, द्वितीयपत्रे महापुरुषाणां जन्मतिथयः लिखिताः सन्ति, तृतीयं पत्रम् इदानीं न आवश्यकम्, तत् पार्श्वे स्थापयतु।
तथैव करोमि।
भवती प्रथमं पत्रं द्वितीयं पत्रं च दृष्ट्वा कस्मिन् दिनाङ्के च किं भवति इति सूचयतु, अहं लिखामि।
अस्तु, एप्रिल् मासस्य चतुर्दशे दिनाङ्के अम्बेड्कर् जयन्ती भवति, श्रावणमासस्य कृष्णपक्षस्य अष्टम्यां तिथौ श्रीकृष्णजयन्ती भवति, तस्मिन्नेव मासे पूर्णिमायां संस्कृतदिनमपि भवति। भगिनी, श्वः द्वादशः दिनाङ्कः खलु, मम परीक्षाः आरप्स्यन्ते, मया पठनीयमस्ति, अतः गच्छामि किम्?
भवती सम्यक् पठतु, पुनः कदा आगमनं भवेत् भवत्याः?
षोडशे दिनाङ्के आगमिष्यामि, यतः पञ्चदशं दिनाङ्कं यावत् मम परीक्षाः भविष्यन्ति।
अस्तु, पुनर्मिलामः।
धन्यवादः। तत्र बहूनि पदानि सन्ति, तत्र पूर्णप्रत्ययान्तपदानि सन्ति, एकवारं पुनः पठेम। किं कुर्वती अस्ति, कुर्वती इति तत्र किमस्ति, शत्रन्तप्रत्ययमस्ति, शत्रन्तरूपमस्ति, कृधातोः कुर्वन् किं कुर्वन् अस्ति भवान् इति भवति पुल्लिङ्गे, स्त्रीलिङ्गे किं भवति, किं कुर्वती अस्ति भवति। तत्र पश्यतु अकारान्त अङ्गमस्ति चेत् पठति, पठन्ति, पठन् अस्ति, पठन्ति अस्ति तत्र भवति, परन्तु कुर्वत् इति खलु तत्र कुरु इति दातवती, कुर्रु इति भवति, अदन्तमङ्गं नास्ति, अतः तत्र नुमागमः न भवति, कुर्वती अस्ति इति भवति अत्र। तत्र किं कुर्वती अस्ति, तत्र धनदर्शिकां रचय दिनदर्शिकां रचयन्ती अस्ति, दिनदर्शिका इत्युक्ते
डैलि
केलेण्डर्,
हा केलेण्डर् दिनदर्शिका, दिनं सूचयति, दिनं दर्शयति, तद् दिनदर्शिका इति सत्रीलिङ्गे अस्ति, दिनदर्शकः इति भवति पुल्लिङ्गे, दिनदर्शिका इति अस्ति तत्र. अधुना विपण्यां विविधाः दिनदर्शिकाः लभ्यन्ते खलु, विपण्याम् इति तत्र विभक्तिः का भवति तत्र? यशोदा भगिनी वदतु.
विपण्यां
विपण्यामिति खलु, विपणिः तत्र विपणिः खलु, तत्र स्त्रीलिङ्गे अस्ति.
विपण्यां याम् अस्ति चेत् मेबि दिस् इस्
चतुर्थी अधुना विपण्यां विविधाः दिनदर्शिकाः लभ्यन्ते खलु, अत्र लभ्यन्ते इति क्रियापदमस्ति, लभ्यन्ते काः लभ्यन्ते कर्मणि प्रयोगे अस्ति, काः लभ्यन्ते काः लभ्यन्ते
विपण्य
न काः लभ्यन्ते इति उत्तरं वदतु, काः लभ्यन्ते?
दिनदर्शिका, दिनदर्शिका लभ्यन्ते.
कीदृशाः दिनदर्शिकाः लभ्यन्ते?
विविधाः दिनदर्शिकाः.
विविधाः दिनदर्शिकाः कुत्र लभ्यन्ते? अत्र आधार अधिकरण अधिकरणकारकमस्ति खलु, वयं जानीमः खलु तत्र, तत्र केवलं रूपं दृष्ट्वा एव तत् तादृशं न करणीयं, आदौ तत्र अस्माकं कारकज्ञानं भवेत् खलु, वयं कारकमपि पठितवन्तः खलु तत्र. यदि अर्थः वयं अर्थं जानीमः चेत् तत्र तावत् सुलभः भवति खलु. विपण्याम् इति अस्ति, विविधाः दिनदर्शिकाः लभ्यन्ते खलु, कुत्र इति यदा कुत्र इति प्रश्नं कुर्मः चेत् तत्र तादृशं भवति. अथवा रूपं यदा वयं तत् अस्माकं सम्यक् ज्ञानं भवति तदा वक्तुं शक्यते. अधुना विपण्यां, विपण्यां कदा इति अस्ति तत्र, अधुना इति विपण्याम् इति तत्र अस्ति. अस्तु, इदानीम् एषा किञ्चित् भिन्ना अस्ति इति, तत्र किञ्चित् भिन्ना अस्ति तत्र, किमर्थं भिन्ना अस्ति इति, का भिन्ना अस्ति?
श्रीलिङ्गे, श्रीलिङ्गे
का भिन्ना अस्ति? एषा इति अस्ति अत्र, एषा इति एषा का इत्युक्ते दिनदर्शिका किञ्चित् भिन्ना अस्ति. तस्यां किं किं किम् अस्ति इति तद् सा वदति, सर्वे भारतीयाः उत्सवाः अस्याम् अस्यां दिनदर्शिकायां सर्वे भारतीयाः उत्सवाः जन्मतिथयः, जन्मतिथिः इति तिथिः इति स्त्रीलिङ्गे अस्ति, अतः तत्र मतिवत् भवति, मतयः इति भवति, महापुरुषाणां जन्मतिथयः, ऐतिहासिकमुहूर्ताश्च, ऐतिहासिकमुहूर्ताः च उल्लिखिताः सन्ति, तत्र लिखिताः सन्ति, उल्लिखिताः सन्ति तत्र. तेन राष्ट्रस्य विषये ज्ञानं सुकरं भवेत्, सुकरमित्युक्ते तत्र अस्माकं सम्यक् ज्ञानं भवेत्, सुकरं तत्र सुकरमित्युक्ते सम्यक् ज्ञानं भवेत्, भवेत् इति विधिरेणकारे अस्ति. अस्तु, हा अग्रे तत्र इदानीं पश्यामः भवत्याः परीक्षा
महोदय.
हा महोदय,
अस्माकं तु विशिष्टा ये.
आं सम्यक् सम्यक्, तदेव तदेव.
एकादश पाठः कुत्र मध्ये?
तत्र हा मध्ये स्मः, तत्र स्वातन्त्रदिनोत्सवः कदा भवति इति अस्ति तत्र.
स्वातन्त्रदिनोत्सवः कदा भवति? वसुधा
भवान्
उक्तवती.
वसुधा
कदा भवति? कः न जानाति भोः? आगस्ट् मासस्य पञ्चदशः दिनाङ्के, पञ्चदशे दिनाङ्के.
हा दिनाङ्कः खलु, प्रथमः दिनाङ्कः इति भवति, दिनाङ्कः इति तत्र पुल्लिङ्गे अस्ति, अत्र कदा इति सप्तम्यां भवति, तत्र कालस्य अधिकरणे अधिकरणसप्तमी अस्ति. कदा? पञ्चदशे दिनाङ्के, अत्र पञ्चदशः इति खलु, पञ्चदशः, पञ्चदशी, पञ्चदशम् इति अत्र पूर्णपत्यान्त पूर्णपत्यान्तपदानि, पञ्चदश इति दिनाङ्कस्य विशेषणं, पञ्चदशः दिनाङ्कः इत्युक्ते पञ्चदशदिनाङ्कः इति प्रथमः दिनाङ्कः इति, तत्र प्रथमः दिनाङ्कः पञ्चदशदिनाङ्कः, अत्र पञ्चदशे दिनाङ्के तत्र सप्तमी अस्ति, तत्र पञ्चदश इति पुल्लिङ्गे अस्ति, तत्र पूर्णप्रत्ययान्तपदमस्ति, अतः तत्र किञ्चित् स्थूलाक्षरैः लिखितमस्ति. अग्रे अग्रे पश्यतु.
वसुधा सुधे, तर्हि गणेशोत्सवः कदा?
कदा भवति, कदा अस्ति?
तर्हि गणेशोत्सवः कदा? सुधा, चतुर्थां तिथौ इति जानामि, किन्तु मासं तु न स्मरामि.
चतुर्थ्यां तिथौ इति अस्ति खलु, चतुर्थ्यां तत्र तत्र प्रथमाविभक्तिरूपं वदतु महोदय, प्रथमाविभक्तिरूपं चतुर्थ्यां
तिथिः तिथिः
पुनः सम्पूर्णं वदतु. चतुर्थ्यां तिथौ इत्यस्य
चतुर्थी
चतुर्थी तिथिः
चतुर्थी तिथिः.
किमर्थं चतुर्थी चतुर्थः नास्ति?
चतुर्थः पुंलिङ्गं तिथिः इति स्त्रीलिङ्गं.
सम्यक् सम्यक्.
चतुर्थः चतुर्थी चतुर्थं
फोर्थ् तिथि, फोर्थ् तिथि इति तत्र पूर्णपत्यं चतुर्थ्याम् इति भवति. अतः ईकारः स्त्रीलिङ्गं चतुर्थ इति भवति, तस्य चतुर्थः चतुर्थम् अथवा चतुर्थी इति त्रिषु लिङ्गेषु भवति इति अस्ति. तत्र चतुर्थ्यां तिथौ इति अत्र विभक्ति का?
चतुर्थ्यां सप्तमी एकवचनं.
सप्तमी कदा इति? आम् सत्यं, कालस्य सप्तमी भक्ति. अस्तु अग्रे
सुधा भवतु, अहमेव वदामि. भाद्रपदमासस्य शुक्लपक्षे चतुर्थ्यां तिथौ गणेशोत्सवः.
अत्रापि सप्तमी भक्ति कदा इति? शुक्लपक्षे इति, शुक्लपक्षे चतुर्थी भाद्रपदमासे इति तत्र वदति खलु. सुधा मासं न जानाति, अतः सुधा वसुधा वदति शुक्लपक्षे अस्ति, परन्तु चतुर्थ्यां तिथौ शुक्लपक्षे चतुर्थ्यां
भाद्रपदमासस्य शुक्लपक्षे.
सम्यक् अग्रे अग्रिमः
सुधा. अस्तु, कः तृतीयः प्रश्नः?
अत्र प्रश्नः इति खलु, तस्य तृतीयः इति पूर्णप्रत्ययान्तपदमस्ति, तत्र प्रथमाविभक्त्यम् अस्ति खलु, प्रथमाविभक्त्यः
तृतीया तृतीयम्.
सम्यक् अग्रे.
छत्रपतेः शिवराजस्य जन्म फाल्गुनमासस्य कृष्णपक्षे द्वितीयायां तिथौ उत तृतीयायां तिथौ?
तत्रापि सप्तमी भक्ति खलु, तिथौ कदा इति?
द्वितीयायां द्वितीया तिथिः तृतीया तिथिः
द्वितीयायां तिथौ. अग्रे
तृतीयायां तिथौ एव, न तु द्वितीयायां तिथौ.
अग्रे पश्यामः.
द्वितीयायां तिथौ एव, न तु द्वितीयायां तिथौ. समीचीनम् उत्तरम् उक्तवती भवती, तर्हि एतत् वदतु, वयं नवरात्रोत्सवः कदा आचरामः?
नवरात्रोत्सवं नवरात्रोत्सवं कदा आचरामः इत्यतः कर्मपदमस्ति.
नवरात्रोत्सवं कदा आचरामः?
कदा इति तत्र कदा भवति तत्र तत्र यशोदा भगिनी वदतु.
महोदय किं महोदय कदा?
न न अत्र इदानीं यशोदा भगिनी वदति कदा कदा यशोदा भगिनी वदतु कदा आचरामः नवरात्रोत्सवम्?
आगस्ट्.
न न नवरात्रोत्सव आगस्ट् मासे भवति, कदा भवति इति आश्वै अत्र दत्तमस्ति खलु कदा इति.
मासे शुक्लपक्षे प्रथमायाः स्थिते आरभ्य नवमी यावत् नवरात्रम् आचरामः.
आरभ्य इति खलु तत्र पश्यतु, आश्वैजमासस्य इति सम्पूर्ण सम्यक् पठनीयमस्ति. आश्वैजमासे नास्ति, आश्वैजमासस्य शुक्लपक्षे इति खलु. प्रथमायाः तिथेः आरभ्य इति अस्ति तत्र. प्रथमायाः तिथेः इति तत्र विभक्ति का? चतुर्थी भवति वा? प्रथमः इति खलु, प्रथमः इत्यस्य चतुर्थीविभक्तिरूपं किम् अस्ति? अकार प्रथमा इति, प्रथमा इति त्रिलिङ्गे अस्ति चेत् किं भवति तत्र चतुर्थीविभक्तिरूपं किं?
प्रथमायाः अस्ति चेत् तिथे तिथे
अत्र पश्यतु
सप्तमी, तिथे सप्तमी न
इकारान्त मतिवत् तथा आरभ्य इति खलु पश्यतु, आरभ्य इति कदा भवति? आरभ्य इत्यस्य किं भवति तत्र पञ्चमी भवति खलु तत्र पञ्चमी भवति तत्र पञ्चमी भवति खलु आरभ्य इत्यस्य वयं जानीमः खलु आरभ्य कदा आरभ्य तत्र ततः आरभ्य पञ्चमी भवति आरभ्य इत्यस्य तत्र उपपद भवति आरभ्य तत्र पञ्चमी विभक्ति अस्ति तत्र प्रथमायाः तिथेः आरभ्य फ्राम्
पञ्चमी विभक्ति वा
आरभ्य इति खलु फ्रम् देट् फ्रम् देट् टु दिस् डेट् आरभ्य इत्युक्ते फ्रम् स्टार्टिङ्ग् फ्रम् खलु तत्र तत्र वयम् आपदान पञ्चमी अपि वक्तुं शक्यते परन्तु तत्र प्रति आरभ्य सामान्यतः तत्र उपपद इति वदामः आरभ्य इति खलु कदा आरभ्य इति कस्मात् आरभ्य इति वदति पञ्चमी भवति कस्मात् आरभ्य इति तत्र न न विपण्यां तत्र नास्ति आरभ्य इति आरभ्य इति खलु तत्र पदमस्ति खलु तत्र योगे पञ्चमी भवति इति वयं पठितवन्तः तत्र विभक्तिप्रकरणे प्रथमायाः स्थिति आरभ्य सोमवासरात् आरभ्य मङ्गलवासरात् आरभ्य आगस्ट् मासात् आरभ्य प्रातरारभ्य इति भवति खलु तत्र प्रातःकालादारभ्य
प्रातःकालाभ्य आरभ्य पञ्चमी
पञ्चमी नवमीं तिथिं यावत् नवमीं तिथिमिति खलु किम् अस्ति तत्र
आरभ्य इस् नाट् पञ्चमी प्रथमाया इस् पञ्चमी
आमाम् आरभ्य योगे न न आरभ्य योगे आरभ्य इति पदस्य योगे पञ्चमी भवति इति वा उक्तवान् खलु आरभ्य इति यदा तस्य प्रयोगः भवति उपपदपञ्चमी इति अहं वदन्नास्मि खलु आरभ्य यदा आरभ्य इत्यस्य प्रयोगः भवति तदा पञ्चमी भवति तत्र यद् यत् समीपे यत् उपपद अस्ति तस्य पञ्चमी भवति तदेव तत्र तत्र कारकपञ्चमीया उपपदपञ्चमीया इति अस्ति तत्र तदेव आरभ्य योगे तत् पञ्चमी भवति उपपदपञ्चमी इति कुर्मः तत्र नवमीं तिथिं यावत् तत्र नवमीं तिथिम् इति अस्ति खलु तत्र किम् अस्ति तत्र विभक्ति का नवमीं तिथिम् इति खलु तिथि इत्यस्य तिथिः इति प्रथमाविभक्तिः अस्ति खलु तत्र द्वितीयविभक्ति किम् अस्ति तिथिं खलु नवमी तिथिपर्यन्तम् इति भवति मध्ये अतः नवमीं तिथिं यावत् इति भवति यावत् तत्र
यावत्
इति पर्यन्तम् इति द्वितीयविभक्ति अस्ति
द्वितीयविभक्ति तिथिं द्वितीयविभक्ति नवमीं तिथिविभक्ति
अग्रे
नवमी
तिथिः अष्टमी इत्यस्य अष्टमः अष्टमी अष्टमम् अष्टमं दिनम् अष्टमी तिथिः अष्टमः पाठः इति भवति खलु नवमी तिथि नवमः पाठः नवमी तिथिः नवमं काव्यम् इति तत्र महानवमी इति दशमी तिथिः विजयादशमी इति तत्र तिथिः इत्यस्य कारणात् सर्वत्र स्त्रीलिङ्गे भवति तत्र विशेषणमस्ति खलु तत्र एकवचने भवति इति तत्र अग्रे तत्र किमर्थ इदानीं धन्यवादः इदानीम् अग्रे वत्सला भगिनी किमर्थं दशमीं तिथिं विजयदशमी इति वदन्ति विजयदशमी इति वदन्ति
दशम्यां तिथौ एव दुर्गादेवी महिषासुरं हतवती अतः देव्या विजयकारणात् दशम्यां तिथौ सप्तमी विभक्ति एव दुर्गादेवी महिषासुरं हतवती अतः देव्याः विजयकारणात् दशमी तिथिं द्वितीया विभक्ति तथा
वदामः
भवती मां प्रश्नैः पीडितवती इदानीम् अहमपि किञ्चित् पृच्छामि
भवतीं पीडयामि इति वदति अस्तु अग्रे अग्रिम सुधा वदति खलु किं पृच्छति सुधा सुधां प्रति
चैत्रमासस्य प्रथमायाः तिथे वैशिष्ट्यं किं? प्रथमायाः तिथे
तत्र किम् अस्ति?
प्रथमायाः तिथे वैशिष्ट्यं किं? षष्टि
सम्बन्धषष्टि कस्य इति तत्र सम्बन्धषष्टि कारकषष्टि नास्ति सम्बन्धषष्टि
चैत्रमासस्य प्रथमायाः द्वयोः षष्टि चैत्रमासस्य प्रथमायाः तिथे चैत्रमासस्य प्रथमायां स्थितौ एव युगादिपर्व भवति प्रथमायां स्थितौ प्रथमायां सप्तमी
आं सम्यक् तर्हि अग्रे अत्र सर्वदा सर्वत्र सप्तमी अस्ति अग्रे
सखि आषाढमासस्य चतुर्दश्यां स्थितौ कोऽपि विशेषः अस्ति किम् चतुर्दश्यां स्थितौ सप्तमी विभक्ति
सप्तमी षष्ट्या
सप्तमी
भवति
चतुर्दश्यां
पश्यतु भगिनि तत्र ईकारान्त स्त्रीलिङ्ग नदीवत् भवति नद्यां खलु
नद्यां
तत्र भवति तत्र याः इति भवति तत्र नद्याः नद्याः नद्यै नद्या नदीं नदी इति खलु रूपं किञ्चित् अग्रे
वसुधा चतुर्दश्याः तिथे दिस् इस् षष्टि चतुर्दश्याः तिथे विषये मम ज्ञानं नास्ति परन्तु आषाढमासस्य पूर्णिमायामेव व्यासजयन्ती इति जानामि गुरुपूर्णिमा इत्येव तस्याः प्रसिद्धः अस्तु भगिनि
तस्याः प्रसिद्धिः खलु
प्रसिद्धिः तस्याः प्रसिद्धिः अस्तु भगिनि भवती अपि दिनदर्शिकायाः निर्माणे सहायं करोति किम्
अग्रे
सुधा निश्चयेन करोमि वदतु मया किं करणीयं वसुधा भवती एतानि पत्राणि गृह्णातु प्रथमे पत्रे उत्सवानाम् आवलिः अस्ति आवलिः लिस्ट् अस्ति आवलिः
प्रथमः
उत्सवानाम् आवलिः अस्ति द्वितीये पत्रे महापुरुषाणां जन्मतिथयः लिखिताः सन्ति तृतीयं
पत्रे तत्र विभक्तिका तत्र विभक्तिका लिङ्गं किं
प्रथमे पत्रे
विभक्तिका
षष्टिविभक्ति
कथं भवति आवलिः उत्सवानाम् आवलिः कुत्र अस्ति उत्सवानाम् आवलिः लिस्ट् कुत्र अस्ति
प्रथमे पत्रे सप्तमी विभक्ति
द्वितीयः अकारान्त प्रथमं पत्रं प्रथमं पत्रं तत्र रूपमपि अत्र पश्यतु एकमस्ति विभक्तीनां रूपं रूपस्य तद् विभक्ति का इति ज्ञातुम् एकमस्ति वाक्यस्य अर्थः कः इति तत्र ऊहां कर्तुं शक्यते ये प्रायः एषः सप्त तत् उत्तरं भवति यदि न जानति चेत् तत्र क्रियापदमुद्दिश्य तत्र किमस्ति तत्र प्रश्नः करणीयः अस्माभिः तदा तत्र उत्तरं भवति तत्र वयं किं कं कदा केन कस्मात् इति कस्य इति तादृश कस्मिन् इति तादृशप्रश्नः कुर्मः चेत् यद् उत्तरं भवति तद् वयं जानीमः खलु तत्र तादृशः अस्ति अत्र अथवा इति तत्र अस्माकं ज्ञानं भवेत् तत्र प्रातिपदिकस्य अपि च तत्र रूपं किम् इति तत्र विभक्तीनां रूपं किम् इति अथवा तत्र कारक किं कारकम् अस्ति कारकं किम् इति ज्ञात्वा एकम् अस्ति यत् एतत् कारकम् अधिकरणकारकम् अस्ति अतः अधिकरणे सप्तमी भवेत् आवलिः अस्ति अत्र प्रथमं पत्रम् इति अत्र प्रथमं पत्रम् इति तत्र अधिकरणकारकमस्ति खलु अस्ति इति आवलेः तत्र किमस्ति तस्य अधिकरणमस्ति खलु पत्रं कुत्र अस्ति इति तादृश अग्रे
प्रथमे पत्रे सप्तमी विभक्ति द्वितीये पत्रे अपि सप्तमी विभक्ति महापुरुषाणां जन्मतिथयः लिखिताः सन्ति तृतीयं पत्रं दिस् इस् प्रथमा विभक्ति इदानीं न आवश्यकम् तृतीयं पत्रम् इस् प्रथमा विभक्ति, तत् पार्श्वे स्थापयतु, तथैव करोमि. वसुधा, भवती प्रथमं पत्रं द्वितीयं पत्रं च दृष्ट्वा कस्यां तिथौ कस्मिन् दिनाङ्के च किं भवति इति सूचयतु, अहं लिखामि. प्रथमं पत्रं द्वितीयं पत्रं द्वयोः द्वितीया विभक्ति
कर्मकारकं किं दृष्ट्वा इति, दृष्ट्वा इति दृष्टातोः तत्र तस्य शान्तरूपस्य तत्र कर्मपदं भवति तत्र प्रथमं पत्रं दृष्ट्वा इति खलु, किं दृष्ट्वा इति अत्र द्वितीया विभक्ति. सम्यक्, अग्रे.
अस्तु, एप्रिल् मासस्य सप्तदशे दिनाङ्के अम्बेड्कर जयन्ती भवति, चतुर्दशे दिनाङ्के, दिस् इस् सप्तमी अगेन्, अम्बेड्कर जयन्ती भवति, श्रावणमासे अष्टम्यां तिथौ सप्तमी विभक्ति, श्रीकृष्णजयन्ती भवति,
अष्टमी
अष्टम्यां. तस्मिन्नेव मासे पूर्णिमायां संस्कृतदिनमपि भवति. भगिनी, श्वः द्वादशः दिनाङ्कः खलु, मम परीक्षाः आरप्स्यन्ते, मया पठनीयम् अस्ति, अतः गच्छामि. किं द्वादशः दिनाङ्कः, दट् इस् प्रथमा विभक्ति. भवतु, भवती सम्यक् पठतु. पुनः कदा आगमनं भवेत् भवत्याः? षोडशे दिनाङ्के सप्तमी विभक्ति आगमिष्यामि, यतः पञ्चदशं दिनाङ्कं यावत् मम परीक्षा भविष्यन्ति. पञ्चदशदिनाङ्कं द्वितीया विभक्ति.
पञ्चदशं दिनाङ्कं यावत् द्वितीया विभक्ति, तावत् पर्यन्तम् इति खलु, षोडशदिनाङ्के आगमिष्यामि, यतः पञ्चदशं दिनाङ्कं, षोडशदिनाङ्कात् पञ्चदशदिनाङ्कपर्यन्तम् इति अर्थे भवति. षोडशदिनाङ्के आगमिष्यामि, ततः यतः, अस्तु, तत् क्षम्यतां, षोडश पञ्चदशं दिनाङ्कं यावत् मम परीक्षा अस्ति, अस्तु अस्तु, पञ्चदशदिनाङ्कं यावत् तस्य परीक्षा अस्ति, अनन्तरम् आगमिष्यामि इति वदति. अस्तु, तद् तदेव अस्ति, क्षम्यतां, यतः इत्युक्ते बिकास् इत्यस्ति. अस्तु, इदानीम् एकं कुर्मः, अहं तत्र अहं प्रश्नं पृच्छामि, इदानीं स्वीकुर्मः इति. गोपालः अस्ति, एकः बालकः अस्ति, सः अहं वदामि, वर्षं वदामि, कस्मिन् वर्षे किं किं कृतवान् इति अहं इदानीं पृच्छामि, भवन्तः वदन्तु तत्र. इदानीं पश्यतु, एकं वदामि वाक्यं, गोपालः द्वितीये वर्षे पदानि अकथयत् इति, हि स्टार्टेड् स्पीकिङ्ग् इति. इदानीम् अग्रे फोर्त् इयर् अरुणकक्षा अपि गम् धातुः, वाक्यं रचयतु, गोपालः, अहं वदामि इदानीं पश्यतु, अरुणकक्षा अस्ति, अरुणकक्षा इत्युक्ते तत्र किमस्ति, किं वदामः तत्र, LKG UKG इति भवति खलु, अरुणोदय, अरुणकक्षा इति वदन्ति, अरुणकक्षा इति, अरुणकक्षा गम् धातुः, इदानीम् अरुणकक्षा अपि च गम् धातु, गम् इति अस्ति, तत् स्वीकृत्य फोर्त् इन् ही स्टार्टेड् गोयिङ्ग् टु स्कूल् LKG एट् द एज् आफ़् फोर्त् इयर्. इदानीं वदतु, अहं वदामि इदानीं तत्र, गोपालः चतुर्थे वर्षे अरुणकक्षाम् अगच्छत् इति भवति. इदानीम् अग्रे पश्यामि, अग्रे पृच्छामि, निरञ्जनभगिनी वदतु, इदानीमस्ति, he started by hearting geetadhyayam kantasti krudatu, kantasti krudatu 6th year. Gopalah geetadhyayam
Gopalah geetadhyayam shashthe वर्षे प्रश्नः किमस्ति महोदय?
सम्यक् सम्यक् सम्यक्
प्रश्नः किमस्ति?
सिक्स्त् इयर् प्रश्नः अस्ति, कदा गीताध्यायं कण्ठस्थीकृतवान् इति.
गोपालः षष्ठे वर्षे षष्ठे वर्षे गीताध्यायस्य कण्ठस्थीकरणम् अकुर्वत्.
कण्ठस्थीकृ इति दातु कण्ठस्थी क्यू प्रत्यय कण्ठस्थीकृतवान् कण्ठस्थीकरणं कृतवान् अथवा कण्ठस्थीकृतवान् अथवा कण्ठस्थीकरणम् अकरोत् इत्यपि गीताध्यायस्य
कण्ठस्थीकरणं
तद् भवति. गीताध्यायं कण्ठस्थीकरणम् अकरोत् इति न भवति खलु. कण्ठस्थीक लुडन्तप्रत्ययः अस्ति खलु तत्र. किमस्ति तत्र कृत् प्रयोगे किं भवति अत्र? कर्मपदस्य षष्ठी भवति इति अस्ति अत्र खलु. श्लोकस्य पाठकः इति खलु तत्र. गीताध्यायस्य कण्ठस्थीकरणं कृतवान् इति भवति खलु. तादृश भवति. अग्रे धन्यवादः. अग्रे तस्य उपनयनम् उपनीतः. अहं वदामि गोपालः उपनीतः भूधातुः एय्त् इयर्. गोपालः उपनीतः भूधातुः एय्त् इयर्. तत्र कः वदति तस्य वाक्यं रचयति? वत्सला भगिनी वाक्यं रचयतु.
अष्टमे वयसे गोपालः गोपालस्य
उपनयनं कृतवन्तः. अथवा उपनीतः इति वदामः. उपनीतः अभवत् गोपालः अष्टमे वर्षे उपनीतः अभवत् अथवा उपनीतः तद् भवति. तद् तत्र उपनयनं भवति अत्र. तत्र पश्यतु कर्तुः तत्र कर्तृपदस्य किं भवति अत्र? लुडन्तप्रयोगे किम् अस्ति तत्र? किं भवति तत्र? कर्तृपदस्य षष्ठी भक्ति भवति खलु. षष्ठी भवति तत्र. किमस्ति अत्र सूत्रं? किमस्ति वयं दृष्टवन्तः खलु. किमस्ति तत्र? उभयप्राप्तौ कर्मणि द्वितीय तत्र तत्र किमस्ति अत्र? कृत्प्रत्ययानां किं भवति तत्र? कृत्प्रत्ययः अस्ति चेत् तत्र सामान्यतः कर्मपदस्य कर्तृपदस्य षष्ठीभक्ति भवति. उभयप्राप्तौ कर्मणि एव द्वितीया इति वयं जानीमः खलु. श्लोकस्य पठनम् इति खलु. श्लोकं पठति, श्लोकस्य पठनं करोति. श्लोकस्य पठनम् इति तत्र श्लोकः इति कर्मपदमस्ति. अत्र श्लोकं पठनम् इति न भवति, श्लोकस्य पठनम् इति भवति. परन्तु अत्र श्लोकस्य पठनं, श्लोकस्य इति षष्ठीभक्ति अस्ति. तद् कारकसप्तमी कारकषष्ठी इति वदामः. किमर्थं? तत्र कारकः अस्ति खलु. पठनक्रियायाः कर्म अस्ति. किमस्ति? श्लोकः. श्लोकस्य पठनम् इति भवति. अथवा किमस्ति अत्र? जगतः कर्ता तत्र कृष्णः इति खलु. जगतः कृष्ण जगतः कर्ता कर्तृ इति अत्र कर्ता इति जगतः जगत् इत्यस्य षष्ठी जगतः कर्ता इति षष्ठी भवति तत्र. उभयप्राप्तौ तत्र तत्र किं भवति? कर्मपदस्य तत्र उभयप्राप्तौ कर्मपदस्य एव भवति इति अस्ति तत्र. सामान्यतः कृद्योगे षष्ठी भवति इति अस्ति. कृद्योगे षष्ठी इति वयं दृष्टवन्तः पूर्वम्. अस्तु, अग्रे पश्यामः. तत्र यदि तत्र भ्रमः अस्ति चेत् क्रियापदं योजयित्वा करणीयम्. अस्तु, इदानीम् अहं वदामि. वसला भगिनी वदतु. गोपालः हिन्दीभाषा पठधातुः 90th year.
नवमे वर्षे गोपालः हिन्दीभाषा what is the kriya padam is
pat pat now, pat
patitum arambhavan
patitum arambhavan athava patitavan iti tat apatat iti api vaiti marati kalu. Navame varshe gopala hindi bhasham patitavan iti bhavati. Astu, agridanim इदानीम् अत्र धन्यवादः भगिनि वसला भगिनी. इदानीं यशोदा भगिनी करोतु. गीतास्पर्धा अस्ति. जी धातुः लब् धातुः एकादश. इन् लेवेन्त् इयर् ही वन् इन् इन् गीतास्पर्धा इति तत्र एव वाक्यं रचयति. गीतास्पर्धा जी धातुः लब् धातुः अपि च एकादश वर्ष एकादश. गोपालः वदतु यशोदा भगिनी. गोपालः
गोपालः
कदा
एकादश
एकादशवर्षे कदा इति एकादशे वर्षे सम्यक्
एकादशे वर्षे
गीता स्पर्धायां लब् धातु अस्ति. जी धातु अस्ति. जी जय जय
जयं
जयं लब्धवान्
गोपाल
एकादशे. पुनः वदतु.
गोपालः
अहं प्रश्नं पृच्छामि. गोपालः गीतास्पर्धायां कदा जयं लब्धवान् इति.
गोपालः एकादशे वर्षे लब्धवान्
किमपि भवतु. अस्तु अस्तु अग्रे. इदानीं राधिका भगिनी भाषणस्पर्धा प्रथमस्थानं प्र उपसर्गयुक्त आप् धातुः 14th year.
गोपालः
भाषणस्पर्धा प्रथमस्थान प्र उपसर्गयुक्त आप् धातुः एकं वाक्यं
चतुर्दशे वयसे
सम्यक्.
वाट् इस् द
भाषणस्पर्धायां
प्राप्तवान्
प्रथमस्थानं प्राप्तवान् इति कदा इति अत्र इदानीं तत्र सर्वं लङ्लकारे अस्ति. सर्वाणि लङ्लकारवाक्यानि. अस्तु अग्रे निरञ्जना भगिनी इदानीं तत्र दशमीकक्षा विशिष्टश्रेणी इत्युक्ते डिस्टिङ्क्षन् विशिष्टश्रेणी लब् धातुः 16th year.
गोपालः षोडशे वर्षे दशम्यां कक्षायां विशिष्टश्रेणीं लब्धवान्
विशिष्टश्रेणी अथवा विशिष्टां श्रेणीम् इति अथवा विशिष्टश्रेणी इति तत्र समासः अस्ति. विशिष्टां श्रेणी इति तत् श्रीलिङ्गे अथवा विशिष्टश्रेणीम् इति समासः अथवा विशिष्टां श्रेणीं लब्धवान् अथवा अलभत् इति अपि लब् धातोः अलभत् इति अलभत् इति भवति. अलभत् इति भवति. अस्तु अग्रे पश्यामः. इदानीं तत्र पश्यतु अत्र अस्तु एकनिमिषः अहं पठामि. अत्र विश्वेश्वरः इति कश्चन व्यक्तिः अस्ति. तस्य जीवने कस्मिन् वर्षे किं किं घटितम् इति प्रश्नः उत्तरम् अहं प्रश्नं पृच्छामि. तत्र एकं वदामि इदानीं. तत् पश्यतु विश्वे इदानीं 21st. विश्वेश्वरः एकविंशतितमे वर्षे पदवीं प्राप्तवान् इति एकमस्ति. पदवीं प्राप्तवान् इन् 21st year. एट् द एज् आफ़् 21 ही गाट् इस् डिग्री इति. तत्र विश्वेश्वरः एकविंशतितमे वर्षे पदवीं प्राप्तवान् इति अस्ति. इदानीं वत्सला भगिनी स्नातकोत्तरपदवी इति अस्ति. स्नातकोत्तरपदवी इन् 23rd year. हि बिकेम् ए पोस्ट् ग्राजुयेट् इन् 23rd year.
विश्वेश् विश्वेश्वरः त्रयोदशे वर्षे
त्रयोदश नास्ति 23
23 आम् त्रयोविंशतितमे वर्षे
त्रयोविंशति भवति वा नम्बर् संख्या कथं भवति एकविंशतिः द्वाविंशतिः अनन्तरं किं त्रयोविंशति भवति वा त्रयोविंशति भवति वा
त्रयोविंशत्यां वर्षे
इति तत्र किमस्ति वर्ष
त्रयोविंशायां
न तत्र भगिनी तत्र वर्ष अस्ति खलु वर्ष इति खलु तद् लिङ्गं तद् वर्ष इति अत्र
त्रयोविंशतिवर्षे
तत्र तत् न त्रयोविंशतिवर्षे भवति वा तमट् प्रत्यये खलु
त्रयोविंशतितमे वर्षे what is that post graduate degree prastava
snatakottara padavi snatakottara padavi
what is the word I didn't get the word
snatakottara padavi snataka padavi itukte tatra padavi snatakottara padavi post graduation snatakottara
padavi
padavi अत्र अस्माकं 23rd इति कथं वक्तव्यम् अस्ति तत्र वर्ष इति खलु तत् वर्ष इत्यस्य अत्र तत्र वर्षम् इति खलु तत् वर्षम् इति तत्र वर्षे एक त्रयोविंशतितमे वर्षे अथवा तत्र तमट् इति किमस्ति अत्र अन्यदरूपमपि अस्ति खलु विंशः विंशे त्रयोविंशे वर्षे
इति त्रयोविंशे वर्षे
तदपि भवति विंशतितमे अथवा तत्र तमट् इति तत्र विकल्पेन भवति चेत् इति अस्ति
त्रयोविंशे वर्षे स्नातकोत्तरपदवी प्राप्तवान् लब्धवान्
स्नातकोत्तरपदवीं प्राप्तवान् अस्तु धन्यवादः इदानीं राधिका भगिनी इदानीं तत्र पश्यतु हा उद्योगप्राप्तिः तत्र 24th इयर्
चतुर्विंशतितमे वर्षे विश्वेश्वरः वाट् इस् दट्
उद्योगं प्राप्तवान् अतः चतुर्विंशतितमे वर्षे अतः अथवा चतुर्विंशे वर्षे इति भवति खलु तर्हि वंशे नास्ति विंशे न चतुर्विंशे वर्षे अतः चतुर्विंशतितमे वर्षे अस्तु धन्यवादः इदानीं यशोदा भगिनी हा अस्तु इदानीम् अग्रे हा उद्योगं प्राप्तवान् हा इदानीम् इन् 28 विवाहितः विश्वेश्वरः विवाहितः इन् 27th इयर् वदतु इदानीं यशोदा
अष्टविंशतितमः
27th
27th वर्षे
वर्ष इत्यस्य सप्तमी विभक्ति अस्ति इदानीं
सप्तविंशतितमः
खलु तमे सप्तविंशतितमः वर्ष वर्ष इति भवति सप्तत्रिंशत्तमे वर्षे
तमे वर्षे सप्तविंशतितमे वर्षे विवाहं
कृतवान् अथवा विवाहितः अभवत् इति
विवाहितः
जातः
अभवत्
विवाहितः जातः विवाहितः अभवत् इति अभवत् इति भवति अतः विवाहं कृतवान्
कृतवान्
धन्यवादः निरञ्जना भगिनी इदानीं अस्य तस्य इदानीं हि गोट् अ प्रमोशन् एट् एज् आफ् 31 पदवृद्धिः इति स्वीकरोतु पदवृ प्रमोशन् इत्युक्ते पदवृद्धिः पदवृद्धिः 31 एट् एज् आफ् 31 हि गोट् प्रमोशन् पदवृद्धिः
एकत्रिंशे वा एकत्रिंशत्तमे
एकत्रिंशत्तमे वर्षे अथवा एकत्रिंशे
वर्षे सः तस्य पदवृद्धिः अभवत्
तस्य पदवृद्धिः अभवत् तदा सः पदवृद्धिं प्राप्तवान् इति भवति
पदवृद्धिं प्राप्तवान्
इति भवति सम्यक् तदपि भवति पदवृद्धिं प्राप्तवान् अथवा तस्य पदवृद्धिः अभवत् इति भवति सम्यक् इदानीं हि बिकम्स् ए मेनेजर् नौ अस्तु अत्र यशो वत्सला भगिनी एट् एज् आफ् 35 हि बिकेम् ए मेनेजर् प्रबन्धकः
प्रबन्धकः
35
पञ्चत्रिंशत्तमे
सम्यक् सम्यक् पञ्चत्रिंशत्तमे वर्षे
तमे वर्षे प्रबन्धकः अभवत्
प्रबन्धकः अभवत् इति अत्र अथवा अथवा अन्यत् रूपमस्ति खलु टमट् इति
विकल्पेन भवति पञ्चत्रिंशे वर्षे प्रबन्धकः अभवत्
सम्यक् पञ्चत्रिंशे वर्षे पञ्चत्रिंशः पञ्चत्रिंशत्तमः अथवा पञ्चत्रिंशमिति तत्र त्रिषु लिङ्गेषु भवति अतः सप्तमी पञ्चत्रिंशे वर्षे अथवा पञ्चत्रिंशत्तमे वर्षे इति भवति सम्यक् अग्रे इदानीं तत्र कः वदति इदानीं द्वारकनाथ् महोदय भवती भवान्
महोदय क्षम्यता महोदय
अस्तु 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 इदानीं तत्र कः वदति इदानीं तत्र यशोदा भगिनि
ओके
इदानीं अत्र प्रशस्तिः हि गाट् ए प्रैज् प्रशस्तिः एट् द एज् आफ् 45
पञ्चचत्वारतमे तम वर्षे तमे वर्षे विश्वेश्वर प्रसक्ति प्राप्तवन्तः
वा
प्राप्तवान्
प्राप्तवान् इति खलु तत्र एकवचनं विश्वेश्वरः खलु विश्वेश्वर तत्र भवति गुरूणां तत्र भवति सर्वदा गुरोः तस्य बहुवचनं भवति गुरोः किमर्थं तत्र केवलं गुरु नास्ति एकः नास्ति तस्य तस्य गुरोः तस्य गुरुपरम्परा अस्ति तत्र केवलं गुरु नास्ति तत्र गुरुपरम्पराय परम्परा अस्ति खलु अतः बहुवचनं भवति तेषां कृते अतः बहुवचनं भवति अन्यथा किं भवति गुरुणां कृते बहुवचनमस्ति अन्यथा एकवचनम् एकस्य एकवचनमेव खलु अत्र विश्वेश्वर एकवचनं गुरु नास्ति अत्र अतः तत्र गौरवरूपेण अथवा केचन वदन्ति परन्तु गुरूणां कृते सर्वदा तत्र अस्माभिः तत्र किं करणीयम् अस्माकं गुरवः इति वदन्ति तत्र किमर्थं तत्र एक अस्ति अपि किमर्थं तत्र बहुवचनं भवति चेत् तत्र गुरुपरम्परा अस्ति तत्र केवलम् एकः नास्ति तत्र एकः गुरुः अस्ति तत्र तस्य गुरुः अस्ति अतः तत्र बहवः गुरवः सन्ति खलु प्रणामं कुर्मः चेत् तत्र गुरुणां तत्र
गुरुणां
बहुवचने भवति एकवचने अत्र एकवचने विशेषण खलु विशेषे एकवचने अस्ति अत्र अत्र नास्ति अतः भवती प्राप्तवन्तः इति उक्तवती खलु अतः उक्तवान् तत्र प्राप्तवान् इति भवेत् प्रशस्तिं प्राप्तवान् इदानीं तत्र इदानीं तस्य इतोपि तस्य किमस्ति पदवृद्धिः जातः अस्ति इदानीं तत्र अहं वदामि एट् दि एज् आफ़् 51 हि बिकेम् प्रेसिडेण्ट् अध्यक्षः इदानीं कः वदति इदानीं तत्र निरञ्जना भगिनी वदतु हा अस्तु भवती वदतु राधिका भगिनी एट् दि एज् आफ़् 51 हि बिकेम् प्रेसिडेण्ट्
विश्वेश्वरः पञ्चाशत्तमे वर्षे प्रबन्धः न नाट् प्रबन्धः
अध्यक्षः प्रेसिडेण्ट् अध्यक्षः
अध्यक्षः अध्यक्षः प्राप्तव अध्यक्षः
अभवन्
अभवत्
अतः अध्यक्षपदवीं प्राप्तवान् इति अपि वर्तते अध्यक्षः अभवत् अध्यक्षः जातः अध्यक्षः अभवत् अध्यक्षपदवीं प्राप्तवान् इति भवति अथवा अन्यद्रूपमस्ति खलु तत्र अन्यद्रूपं किमस्ति
एकविंशति एकपञ्चाशी
एकपञ्चाशी एकपञ्चाशे
हा
एकपञ्चाशे तमे एकपञ्चाशे वर्षे विश्वेश्वरः अध्यक्षः अभवत्
सम्यक् उत्तमम् इदानीं निरञ्जन भगिनी गाट् रिटैर्ड् एट् एज् आफ़् 60 निवृत्तिः
एकषष्टितमे वर्षे तस्य निवृत्तिः अभवत् अतः सः निवृत्तः अभवत्
तत्र किमस्ति भगिनि एकवारं पुनः वदतु सम्यक् न श्रूयते
श्रूयते वा
विश्वेश्वरः
एकषष्टितमे वर्षे
सिक्स्टि
विश्वेश्वरः षष्टितमे वर्षे निवृत्तः अभवत् अथवा तस्य निवृत्तिः अभवत्
अन्यद्रूपं भवति वा अत्र
न भवति
न भवति 60, 70, 80 तत्र 90 तत्र तत्र अथवा 100 तत्र न भवति इति अस्ति अन्यत्र भवति असङ्ख्यायां सङ्ख्यायां भवति असङ्ख्यायाम् इति षष्टिः अस्ति खलु तत्र एकषष्टितमः एकषष्टः भवति परन्तु षष्टितमे षष्टितमः एकमेव रूपं सप्ततितमः इति एकमेव रूपम् एकसप्ततितमः एकसप्ततः इति भवति एकसप्ततः इति तत्र एक इति तादृश भवति तत्र भवितुमर्हति परन्तु अत्र नास्ति
द्वारम् उद्घाटयामि एकनिमिषं द्वारम् उद्घाटयामि एकनिमिषम्
अस्तु अस्तु अग्रे अस्तु तर्हि एतत् अभवत् अग्रे गच्छामः इदानीं तत्र किमपि अस्ति वा तत्र अहं चिन्तयामि तत्र एकवारं पुनः पठन्तु तत्र यत् करपत्रमहं प्रेषितवान् आसीत् पूर्वं तत्र सङ्ख्यानां तत्र किं भवति इति प्रायः अत्र एकनिमिषः
अत्र दत्तमस्ति
करपत्रमस्ति खलु
सम्यक्
अग्रे गच्छामः इदानीं तत्र किमस्ति कोष्टकस्य अभ्यासः पश्यामः तत्र अभ्यासः पश्यामः तत् कृतवन्तः वा अभ्यासः द्वितीय अभ्यासः
वा
अस्तु प्रथमः अभ्यासः जातः द्वितीयः अस्ति अस्तु इदानीं कः कस्य क्रमः अस्ति अस्तु इदानीं यशोदा भगिनी आरम्भं करोतु यशोदा भगिनी म्यूट् मध्ये अस्ति
कुत्र अस्ति सः
द्वितीयः इदानीं तत्र पेज् नम्बर् तत्र अस्ति अत्र
73
अत्र वदतु भगिनी तत्र संख्या तत्र संस्कृतभाषायां वदतु 73rd पेज् पृष्ठ
73 अस्ति तत्र
कस्मिन् पृष्ठे कस्मिन् पृष्ठे इति वदतु कस्मिन् पृष्ठे
त्रिसप्ततितमे
त्रिसप्ततितमे त्रिसप्तमे पृष्ठे अथवा सप्ततः खलु तत्र तत्र तादृश भवति
महोदय कुत्र अस्ति सेकेण्ड् आर् थर्ड्
सेकेण्ड् कौरवपाण्डवाः खलु तत्र अस्ति खलु एय्ट् पेज् नम्बर् पश्यतु तत्र
गट् इट् कौरवपाण्डवाः अग्रे बाल्ये क्रीडिता बाल्ये विटया क्रीडितवन्तः कैण्ड् आफ् गेम् क्रीडासम्बन्धानि कानिचन वाक्यानि अत्र सन्ति तानि वाक्यानि यथोद्धारणः पूर्णप्रत्ययेन पूरितः विटा
पठतु भगिनि तत् पुनः पूर्णप्रत्ययान्तेन पूर्णप्रत्ययान्तेन पूरयत इति खलु
सो
वीटा इति यत्किम् अस्ति अत्र वीटा इत्युक्ते
गुल्लीदण्ड
गुल्लीदण्ड इति दत्तमस्ति खलु गुल्लीदण्ड इति तदेव अस्ति
मराठीभाषायां वीटा इति शब्दप्रयोगः अस्ति महोदय
सम्यक् उत्तमं भगिनि अत्र अस्माकं भाषायां नास्ति तत्र गुल् वीटा इति पश्यतु मराठीभाषा तेलुगुभाषा तत्र मराठीभाषायां पश्यामि तत्र बहवः संस्कृत शब्दाः सन्ति खलु बहवः संस्कृताः सन्ति अपि च तत्र पश्यतु अकारस्य अकारस्य उच्चारणं सामान्यतः किम् अस्ति तत्र संवारः उच्चारणसंवारः भवेत् महाराष्ट्रे एव अकारस्य संवार उच्चारणं भवति अन्यत्र न भवति अ इति वदन्ति खलु तद् संवार अस्ति विवार तत्र संवार भवति अकारस्य संवार भवति अतः एव पाष्टाध्यायम् अन्तिमसूत्रमस्ति अ इति तद् प्रक्रियादशायां विवारः अस्ति परन्तु अनन्तरं तत् किम् अस्ति अत्र अन्तिमः इति खलु तत्र अन्तिमः किमस्ति अष्टाध्याय अन्तिमः अन्तिमं सूत्रमस्ति अतः किमस्ति अर्थः अस्ति तत्र अष्टाध्यायं प्रक्रियायां तस्य प्रयोगः नास्ति तत्र भाषायां भवति तत्र उच्चारणे भवति अ इत्यस्य अ इति वदन्ति खलु अ इति वदन्ति खलु महाराष्ट्रे जनाः स्पष्ट उच्चारणमस्ति अकारस्य अन्यत्र नास्ति अतः सम्यक्
क्रीडारम्भे पाण्डवेषु एकः प्रथमः युधिष्ठर विटां कौरवेषु तृतीयाय दशासनाय सम्प्रेषितवान्
पुनः वदतु क्रीडारम्भे पाण्डवेषु प्रथमः युधिष्ठिरः
क्रीडारम्भे पाण्डवेषु प्रथमः युधिष्ठिर विटां कौरवेषु
वीटां
कौरवेषु तृतीयाय दुःशासनाय
पाण्डवेषु पश्यतु युधिष्ठिरः कः पाण्डवेषु
क्रीडारम्भे अस्ति
न युधिष्ठिरः कः पाण्डवेषु प्रथमः पाण्डवेषु युधिष्ठिरः प्रथमः खलु प्रथमः पाण्डवेषु प्रथमः युधिष्ठिरः पाण्डवेषु प्रथमः खलु वीटां तत्र गुल्लीदण्ड अस्ति खलु तृतीयायाय कथं दुःशासनाय सम्प्रेषितवान्? कौरवैः तृतीयः दुःशासनः कस्मै सम्प्रेषितवान्? तत्र चतुर्थी
सम्प्रेषितवान्?
तत्र क्रीडा अस्ति खलु, पासिङ्ग् किमपि अस्ति तत्र, गुल्लीदण्डा. वीटां वीटां प्रेषितवान्, वीटाम् इति वीटा इत्युक्ते गुल्लीदण्डा अस्ति. एषः क्रीडा का इति अहं न जानामि, परन्तु अत्र प्रायः तत्र वीटा इति अस्ति खलु, तत्र वीटा इत्युक्ते यत् किमस्ति, काष्ठनिर्मित यत्किमपि भवतु, तस्य सम्प्रेषितवान्, तस्मै दत्तवान् इदानीम्. इदानीं
पाण्डवेषु द्वितीया भीमः,
पुनः वदतु,
द्वितीयेषु
द्वितीयः द्वितीयः द्वितीय न द्वितीयः भीमः
द्वितीयः
पाण्डवेषु द्वितीयः भीमः
वीटा कौरवेषु प्रथम दुर्योधनस्य सम्प्रेषितवान्.
पुनः वदतु भगिनी, तत्र सम्यक् नास्ति यद् उक्तवती, इदानीं पश्यतु.
पाण्डवेषु द्वितीयः भीमः वीटां कौरवेषु
वीटां
कौरवेषु प्रथम दुर्योधनाय
प्रथमः दुर्योधनाय भवति वा, दुर्योधनाय इति खलु, दुर्योधनाय
प्रथमाय.
पुनः वदतु,
कौरवेषु प्रथमाय दुर्योधनाय सम्प्रेषितवान्.
प्रथम इत्यस्य चतुर्थीभक्ति का, प्रथमः इत्यस्य चतुर्थीभक्ति का,
प्रथमे
चतुर्थीभक्ति, प्रथमः इति पुल्लिङ्गस्य राम इत्यस्य किं भवति चतुर्थीभक्ति,
रामयोः
चतुर्थीभक्ति भगिनि, चतुर्थीभक्ति रामः चतुर्थीभक्ति एकवचने
चतुर्थीय
रामाय खलु, रामाय सम्यक् तदेव अस्ति खलु, अकारान्त किमपि सन्देहः एव नास्ति, अकारान्तपुल्लिङ्गरामशब्दमस्ति, तत्र ईकार स्त्रीलिङ्गे ईकारान्त नदीशब्दमस्ति उक्तवान् अस्ति खलु, अपि च प्रथमम् इति नपुंसकलिङ्गे अस्ति चेत् तत्र फलवत् अकारान्त, अतः दुर्योधन प्रथमाय दुर्योधनाय खलु, प्रथमाय दुर्योधनाय सम्प्रेषितवान्
प्रथमाय दुर्योधनाय.
धन्यवादः, हा धन्यवादः भगिनि. इदानीं तत्र कः वदति, इदानीं तत्र इदानीं एकनिमिष, अस्तु राधिका भगिनी अग्रे.
कौरवेषु द्वितीयः युयुत्सुः वीटां पाण्डवेषु चतुर्थयाय नकुलाय सम्प्रेषितवान्.
पुनः वदतु,
कौरवेषु द्वितीयः युयुत्सुः वीटां पाण्डवेषु चतुर्थः
इति अकारान्त पुल्लिङ्गपदमस्ति खलु, नकुलः खलु, चतुर्थः नकुल
चतुर्थाय नकुलाय सम्प्रेषितवान्.
अत्र भवति तृतीयाय इति खलु, अत्र अत्र यकारयकार द्वयमिति अत्र भ्रमः अभवत् भवत्याः, अतः चतुर्थयाय इति उक्तवती, चतुर्थाय केवलम् अकारान्त अस्ति खलु, किमपि नास्ति, चतुर्थः चतुर्थाय
खलु,
सम्यक् उत्तमम्. अग्रे निरञ्जन भगिनि,
पाण्डवेषु
धन्यवादः
महोदय. कौरवेषु द्वितीया, दिस् इस् युयुत्सु, सो वाट् इस् द वर्ड् देर्?
युयुत्सुः युयुत्सु खलु, युयुत्सु इति इति नाम अस्ति खलु, युयुत्सु इति नाम अस्ति खलु,
न कौरवेषु
युयुत्सु,
भवान् सप्तमी विभक्ति अस्ति न,
नाम अस्ति युयुत्सु इति,
नाम
मुमुक्षुः मुमुक्षुः भिक्षुः योद्धुमिच्छुः योद्धुमिच्छुः इति युद्धं कर्तुम् इच्छु युस्सु इति भवति न द्वितीय नास्ति तत्र अत्र द्वितीयः द्वितीयः इव तत्र पश्यतु युयुस् इति एकवचने अस्ति खलु अतः तत्र द्वितीयस्य एकवचन युयुस् इति प्रथमविभक्त्याम् अस्ति खलु अतः द्वितीयस्य प्रथमविभक्ति भवति खलु द्वितीयः युयुसुः
ओके
अथवा हा द्वितीयं युयुसुम् आह्वय क्रीडाय इति अत्र द्वितीयविभक्तिः भवति कौरवेषु द्वितीयं युयुसुम् आह्वय अथवा द्वितीयाय युयुसवे किमपि ददातु इति तत्र चतुर्थी विभक्तिः भवति अत्र प्रथमाविभक्तिः अस्ति खलु प्रथमाविभक्ति युयुसु इति तादृश अग्रे
धन्यवादः
पाण्डवेषु तृतीयः अर्जुनः वीतां कौरवेषु फोर्थ् अच्छा पाण्डवेषु पञ्चमः सहदेवः वीतां कौरवेषु चतुर्थाय दुःसहाय सम्प्रेषितवान्
दुःसहाय दुःसहः इति तत्र एकवचने दुःसहाय इति भवति दुःसह इति तत्र प्रातिपदिकं दुःसहाय अकारान्त
दुःसहाय
सम्प्रेषितवान् सम्प्रेषितवान्
इदानीं दुःसहः पञ्चम्यः न वा
पञ्चमः
सहदेवः खलु पञ्चम्याः इत्यत्र पञ्चमी इत्यस्य पञ्चम्याः तिथौ तत्र पञ्चम्याः तिथेः इति तत्र भवति अत्र पञ्चम्यां तिथौ इति खलु अत्र नास्ति खलु पञ्चमः खलु पञ्चमः पाण्डवेषु पञ्चमः कः
पञ्चमः अस्ति सहदेवः अस्ति
पाण्डवेषु
पञ्चमः
पञ्चम्यः आर् पञ्चमः
पञ्चम्यः भवति वा पञ्चमः खलु पञ्चम मट् इति आगम भवति तत्र पञ्चमः पञ्चमा पञ्चमी पञ्चमं पञ्चमः पुल्लिङ्गे पञ्चमं नपुंसकलिङ्गे पञ्चमी इति स्त्रीलिङ्गे खलु अस्तु
धन्यवादः
अस्तु अग्रे इदानीं तत्र वत्सला भगिनि अग्रे
आम् पाण्डवेषु तृतीयः अर्जुनः वीतां कौरवेषु पञ्चमाय दुश्शलाय सम्प्रेषितवान्
सम्यक् अत्र पञ्चमाय इति दुश्शलाय इति दुश्शला इत्यस्य तत्र विशेषणमस्ति पञ्चमः फिफ्त् अतः तत्र दुश्शलाय इति चतुर्थी भक्तिः अस्ति पञ्चमाय दुश्शलाय पञ्चमः दुश्शलः कौरवेषु पञ्चमः दुश्शलः तस्मै इति अस्ति अत्र पञ्चमाय दुश्शलाय सम्प्रेषितवान् इति अस्ति सम्यक् कुशलम् अग्रे इदानीं तत्
महोदय तस्य दुश्शला इति भगिनी अपि अस्ति न कौरवे
ओ अस्तु न तत्र दुश्शला इति वा
दुश्शला
दुश्शलाय इति अत्र दुश्शला नास्ति दुश्शलायै इति भवति खलु दुश्शलः दुश्शलः इति दुश्शला भवितुमर्हति स्त्रीलिङ्गे दुश्शला इति पुल्लिङ्गे दुश्शला इति स्त्रीलिङ्गे इति भवितुमर्हति दुश्शलः दुश्शलः
इति
अग्रे स्त्रीलिङ्गे भवति दुश्शलाय दुश्शलायै इति भवेत् सत्यं
कौरवेषु पञ्चविंशतितमः चित्राक्षः वीटां कौरवेषु पञ्चाशत्तमाय चित्रायुधाय सम्प्रेषितवान्
पञ्चाशत्तमाय चित्रायुधाय सम्प्रेषितवान् सम्यक् अग्रे धन्यवादः भगिनि इदानीं कः वदति इदानीं कस्याः अस्तु एकनिमिषः दुश्शला इति स्त्रीलिङ्गे अपि अस्ति तत्र दुश्शला इति दुश्शला इति स्त्रीलिङ्गे धृतराष्ट्र धृतराष्ट्रस्य दुश्शला इति अस्ति तत्र दुश्शला इति दुश्शलः इति प्रायः अहं न जानामि तत्र तत्र कौरवाः सन्ति खलु तत्र शत अस्तु इदानीम् अग्रे इदानीम् इदानीं कः वदति इदानीं तत्र यशोदा भगिनी अग्रे करोतु
कौरवेषु सप्ततीयाः आदित्यकेतुः विटां कौरवेषु अष्टनवतितमः कनकव्यजाय सम्प्रेषितवान्
सम्यक् नास्ति निरजन भगिनी सम्यक् समीचीन तत्र
चतुर्सप्ततितमः
सम्यक् चतुर्सप्ततितमः
आदित्यकेतु विटां
विटां नास्ति वीटां
वीटां कौरवेषु अष्टनवतितमाय कनकध्वजाय सम्प्रेषितवान्
उत्तमं तदेव अस्ति अत्र अकारान्त अस्ति खलु अष्टनवतिः इति अष्टनवतिः अष्टनवतितमः अष्टनवतितमः इति तस्य तस्मै इति अष्टनवतितमाय कनकध्वजाय अष्टनवताय धन्यवादः अग्रे इदानीं कः वदति इदानीं वदतु
कौरवेषु पञ्चपञ्चाशत्तमः दृढक्षत्रः वीटां कौरवेषु एकसप्तमितमाय सुहस्ताय सम्प्रेषितवान्
सम्यक् अत्र अन्यद् रूपमपि अस्ति वा जानाति वा पञ्चपञ्चाशत् नास्ति पञ्चपञ्चाशः
पञ्चपञ्चाशः दृढक्षत्रः वीरां कौरवेषु एकसप्तति सुहस्ताय एकसप्तताय सप्तमी न चाहिए एकसप्तताय
सुहस्ताय
सप्तमितमः न
न न एकमस्ति सप्ततितमः अस्ति खलु अथवा तत्र तमट् इति आगमः विकल्पेन भवति अन्य
एकसप्ततितमाय सुहस्ताय
एकसप्तताय सुहस्ताय
एकसप्तताय सुहस्ताय
तादृश भवति परन्तु तत्र किञ्चित् क्लेशः भवति अतः तमट् इति तमट् प्रत्यय तमट् इति सर्वदा करोतु सर्वत्र भवति खलु
तमट् इति
सर्वत्र अस्ति खलु तदेव करोतु तत्र समीचीनमेव भवति तदेव भवति तत्र तत् किञ्चित् केवलं ज्ञानार्थमेव अहम् उक्तवान् आसीत् परन्तु तम इत्यस्य प्रयोगमेव करोतु सर्वदा
एकसप्ततितमाय सुहस्ताय सम्प्रेषितवान्
एकनिमिष एकनिमिष अस्तु अस्तु तथा अभवत् खलु. धन्यवादः. इदानीं तत्र राधिका भगिनी अग्रे.
हां, वर्षे वर्षे प्रतिमासम् अपि कानिचन विशेषदिनानि भवन्ति. अत्र तादृशानि कानिचन दिनानि निर्दिष्टानि सन्ति. तानि कदा भवन्ति इति यथोदाहरणं वाक्यरूपेण लिखत. जनवरि मासस्य द्वादशे दिनाङ्के विवेकानन्दजयन्ती भवति.
द्वितीयः करोतु. जनवरि मासः 26th.
आम् सेकेण्ड्. जनवरि मासस्य षड्विंशतितमदिनाङ्के
षड्विंशतितम नास्ति खलु, षड्विंशतितमे
गणतन्त्रदिवसम् अस्ति भवति.
दिनाङ्के गणतन्त्रदिनम् अस्ति. गणतन्त्रदिनं भवति, गणतन्त्रदिनं भवति इति अस्ति. गणतन्त्र उत्सवः भवति इति तद् भवति. अथवा अन्यद्रूपं वदतु, अन्यद्रूपं वदतु. जनवरि मासस्य तमट् इति विकल्पम् अस्ति. अनन्तरं तमट् नास्ति, तमट्
ओके. षड्विंशः
दिनाङ्कः, षड्विंशे दिनाङ्के
गणतन्त्रदिवसं भवति.
गणतन्त्रदिनं भवति. दिवसः इति पुल्लिङ्गे अस्ति, दिवस दिनम् इति न पृथक्लिङ्ग. धन्यवादः. दिनजन भगिनी अग्रिम.
तृतीयं महोदय. मार्च मासस्य प्रथमे दिनाङ्के विश्ववनितादिनं भवति. एप्रिल् मासस्य चतुर्दशे दिनाङ्के अम्बेड्कर् जयन्ती भवति.
चतुर्दशे दिनाङ्के अत्र के चतुर्दशे तत्र अत्र विंशति आरभ्य तमट् प्रत्ययः भवति. तत् पूर्वं नास्ति, दट् एव प्रत्ययः. अस्तु, तमट् आगमः इति वदामः तत्र. अस्तु, धन्यवादः. अग्रे इदानीं वदति, इदानीं तत्र वसला भगिनी 5th and 6th. म्यूट् मध्ये. इदानीं
एप्रिल् मासस्य एप्रिल् मासस्य एप्रिल् मासस्य चतुर्दशे दिनाङ्के अम्बेड्कर जयन्ती भवति. मयि मासस्य प्रथमे दिनाङ्के विश्वकार्मिकदिनं भवति. जूलै मासस्य पञ्चमे दिनाङ्के विश्वपर्यावरणदिनं भवति.
सम्यक्, धन्यवादः भगिनि. अस्तु, यशोदा भगिनी अग्रे.
सेप्टेम्बर् मासस्य पञ्चमे दिनाङ्के.
सम्यक्, उत्तमम्.
अध्यापकदिनं भवति.
भवति, सम्यक्, उत्तमम्.
सो केन् ऐ से सप्तमे दिवसे लैक् दट्?
सेप्टेम्बर् मासे सेप्टेम्बर् मासस्य खलु, मासस्य भवति खलु
सेप्टेम्बर् मासस्य
भवति. सेप्टेम्बर् मासे पञ्च तत्र भवति भवितुमर्हति, परन्तु मासस्य इति इतोपि स्पष्टः भवति. सेप्टेम्बर् मासस्य खलु, तस्य इति सम्बन्धः खलु, कस्य इति.
ओके ओके. सेप्टेम्बर् मासस्य पञ्चमदिनाङ्के
पञ्चम नास्ति, पञ्चमदिनाङ्के नास्ति खलु, पञ्चम इति प्रथम इति
पञ्चदिनाङ्के,
पञ्चमे दिनाङ्के, पञ्च नास्ति
पञ्चमे दिनाङ्के, पञ्चमे दिनाङ्के अध्यापकदिनं भवति. देन् नवम्बर् मासे मासस्य चतुर्दशदिनाङ्के
बालदिनदशदिनाङ्के भवति
चतुर्दशदिनाङ्के दिनाङ्के चतुर्दशे दिनाङ्के बालदिनं भवति.
बालदिनं चिल्ड्रन्स् डे भवति इति सम्यक्. तावदेव तत्र अस्तु. समयः तत्रैव स्थगयामः. किञ्चित् अभ्यासं करोतु केवलं, सर्वेषां भवति, तत्र क्लेशः नास्ति. सर्वेषामपि तादृश भवति सङ्ख्यानां विषये, सङ्ख्यानां विषये तत्र तत्र बहूनां तत्र सन्देहः भवन् सहजः एव सन्देहः. अतः तत्र अभ्यासः करणीयः अस्माभिः, तद् तदा एव भवति. अस्तु, अत्र एव स्थगयामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्ति रामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. धन्यवादः.
शुभरात्रि.
शुभरात्रि.
शुभरात्रि.